तृतीय स्कंद अथ षष्ठोध्याय ऋषिर्वाच इति तासां स्वशक्तीनां सतीनां समेत्य सह प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः कालसंज्ञां तदा देवीं बिभ्रत् शक्तिमुरुक्रमः त्रयोविंशति तत्त्वानां गणं जुगपदाविशत् सोनु प्रविष्टो भगवान् श्रेष्ठारूपेण तं गणम् भिन्नम् संयोजयामास सुप्तम् कर्म प्रबोधयन् प्रबुद्ध कर्मा दैवेन त्रयोविंशतिको गणः प्रेरितो जनयत्स्वाभिर्मात्राभिरधिपुरुषम् परेण विशता स्वस्मिन् मात्रया विश्वस्य गणः चुक्षुभानुन्यमासाद्य जस्मिन् लोकाश्चराचरः हिरण्मयः सपुरुषः सहस्रपरिवत्सरान् अण्डकोश उवाशाप्सु सर्वसत्त्वोपबृंहितः सवै विश्वसृजाम् गर्भो देवकर्मात्मशक्तिमान् विभजात्मनात्मानम् एकधा दशधा त्रिधा एष यशेष सत्त्वानामात्मांसः परमात्मनः आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा विराट् प्राणो दशविध एकधा हृदयेन च स्मरन् विश्वसृजामीशो विज्ञापितमधोक्षजः विराजमतपस्वेन तेजसैषाम् विवृत्तये अथ तयाभितप्तस्य कतिचायतनानि ह निरभिद्यन्तदेवानाम् तानि मे गदतः शृणु तस्याग्निराश्यम् निर्भिन्नम् लोकपालो विशत्पदम् वाचा स्वांसेन वक्तव्यम् जयासौ प्रतिपद्यते निर्भिन्नम् तालुवर्णो लोकपालो विशद्हरे जिह्वयांसेन च रसम् जयासौ प्रतिपद्यते निर्भिन्ने अस्मिन् औनासे विष्णोराविशताम् पदम् घ्राणेनांसेन गन्धस्य प्रतिपत्तिर्जतो भवेत् निर्भिन्ने अक्षणी त्वष्टा लोकपालो विशद् विभो चक्षुषांसेन रूपाणाम् प्रतिपत्तिर्जतो भवेत् निर्भिन्नान्यस्य चर्माणि लोकपालो निलो विशत् प्राणेनांसेन संस्पर्शम् जनासौ प्रतिपद्यते कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यम् स्वम् विविशुर्दिशः श्रोत्रेणांसेन शब्दस्य सिद्धिम् जेन प्रपद्यते त्वचम् अस्य विनिर्भिन्नाम् विवसुर्धिष्णमोषधि अंशेन रुमभिकण्डुम् जैरसौ प्रतिपद्यते मेढ्रम् तस्य विनिर्भिन्नम् स्वधिष्णम् कौपाविशत् रेतसांसेन जेनासौ आनन्दम् प्रतिपद्यते गुदम् पुंसो विनिर्भिन्नम् मित्रोल्लोकेश आविशत् पायुनांशेन जेनासौ विसर्गम् प्रतिपद्यते हस्तावश्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् वार्तयांशेन पुरुषो जया वृत्तिम् प्रपद्यते पादावश्य विनिर्भिन्नौ लोकेशौ विष्णुराविशत् गत्या स्वांशेन पुरुषो जया प्राप्यम् प्रपद्यते बुद्धिम् चास्य विनिर्भिन्नाम् वागीशो धिषणमाविशत् बोधेनांशेन बोधव्य प्रतिपत्तिर्जतो भवेत् हृदयम् चास्य निर्भिन्नम् चन्द्रमाधिष्णमाविशत् मनसांसेन जेनासौ विक्रियाम् प्रतिपद्यते आत्मानम् चास्य निर्भिन्नम् अभिमान्यो विशत्पदम् कर्मणांसेन जेनासौ कर्तव्यम् प्रतिपद्यते सत्त्वम् चास्य विनिर्भिन्नम् महान्धिष्णमुपाविशत् चित्तेनांसेन जेनासौ विज्ञानम् प्रतिपद्यते शिश्लोष्य द्यौर्धरा पद्भ्याम् खम्नाभेरुदपद्यत गुणानाम् वित्तयोजेषु प्रतीयन्ते सुरादयः आत्यन्तिकेन सत्त्वेन दिवम् देवाः प्रपेदिरे धराम् रजः स्वभावेन प्रणय ये च ताननु तार्तीयेन स्वभावेन भगवन्नाभिमाश्रितः उभयोरन्तरम् व्योम ये रुद्रपार्षदाम् गणः मुक्तो वर्ततो ब्रह्म पुरुषस्य कुरुद्वः जस्तुन्मुखत्वाद्वर्णानाम् मुख्यो भूद्ब्राह्मणो गुरुः बाहुभ्यो वर्तत छत्रम् क्षत्रियस्तदनुव्रतः यो जातस्त्रायते ब्रह्मवर्णान् पौरुषः कण्ठकच्छतात् विश्वन्वर्तत तस्योरो लोकवृत्ति करीर विभो वैश्यस्तदुद्भवो वार्ता नृणाम यह समवर्तयत पद्भ्याम भगवतो जज्ञेश सुरसा धर्म सिद्धये तस्याम जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरि एते वर्णः स्वधर्मेण जजन्ति स्वगुरुम् हरिम् श्रद्धयात्मशुद्ध्यर्थम् जज्जाता सह वृत्तिभिः एतच्छत्तर भगवतो दैवकर्मात्मरूपिणः कः श्रद्धध्यातुपाकर्तुम् जोगमाया बलोदयम् अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् कीर्तिम् हरे स्वाम् सत्कर्तुम् गिरमन्याभिधासति एकान्तलाभम् वचसो नपुंसाम् सुश्लोकमौलेर्गुणवादमाहुः श्रुतेश्च विद्वद्भिरुपाकृतायाम् कथा सुधायामुपसम्प्रयोगम् आत्मनो वसितो वत्स महिमा कविनादिना संवत्सरसहस्रान्ते धिया योगविपक्वया अतो भगवतो माया मायिनामपि मोहिनी यत् स्वयं चात्मवर्तात्मा न वेद किमुता परे यतो प्राप्य निवर्तन्त वाचश्च मनसा सह अहम् चान्यैमे देवा तस्मै भगवते नमः। इति श्रीमद्भागवते महापुराणे परमहंसां संहितां तृतीय स्कन्धे षष्ठोऽध्यायः।